ओम नमो भगवते वासुदेवाय। अथ त्रयोदशोऽध्यायः। श्री भगवानुवाच। सत्वं रजस्तम इति गुणा बुद्धेर्न चात्मनः, सत्वेनान्यतमौ हन्यात् सत्वं सत्वेन चैव हि। सत्वात् धर्मो भवेद् वृद्धात् पुंसो मद्भक्तिलक्षणः, सात्विकोपासया सत्वं ततो धर्मः प्रवर्तते। धर्मो रजस्तमो हन्यात् सत्ववृद्धिरनुत्तमः, आशु नश्यति तन्मूलो यधर्म उभये हते। आगमोपः प्रजादेशः कालः कर्म च जन्म च, ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतवः। तत्तत् सात्विकमेव ईशाम् यद्यद्वृद्धा प्रचक्षते, निन्दन्ति तामसं तत्तद् राजसं तदुपेक्षितम्। सात्विकान्येव सेवेत पुमान् सत्त्वविवृद्धये, ततो धर्मस्ततो ज्ञानं यावत् स्मृतिरपोहनम्। वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम्, एवं गुणव्यत्ययजो देह शाम्यति तत्क्रियः। उद्धव उवाच। विदन्ति मर्त्या प्रायेण विषयान् पदमापदाम्, तथापि भुञ्जते कृष्ण तत्कथं स्वखराजवत्। श्रीभगवानुवाच। अहमित्यन्यथा बुद्धिः प्रमत्तस्य यथा हृदि, उत्सर्पतिरजो घोरं ततो वैकारिकं मनः। रजो युक्तस्य मनसः सङ्कल्पः सविकल्पकः, ततः कामो गुणध्यानात् दुःसः स्याद्धि दुर्मतेः। करोति कामवशकः कर्माण्यविजितेन्द्रियः, दुःखोदर्काणि सम्पश्यन् रजो वेगविमोहितः। रजस्तमोभ्याम् यदपि विद्वान् विक्षिप्तधीः, पुनः अतन्द्रितो मनो युञ्जन् दोषदृष्टिर्न सज्जते। अप्रमत्तो नु युञ्जीत मनोमय्यर्पयञ्छनैः, अनिर्विण्णो यथा कालं जितस्वासो जितासनः। एतावान् योगादिष्टो मच्छिष्यै सनकादिभिः, सर्वतो मन आकृष्य मय्यद्धावेश्यते यथा। उद्धव उवाच। यदा त्वं सनकादिभ्यो येन रूपेण केशव योगमादिष्टवानेतद् रूपमिच्छामि वेदितुम्। श्रीभगवानुवाच। पुत्रा हिरण्यगर्भस्य मानसा सनकादयः, पप्रच्छुः पितरं सूक्ष्मा योगस्यै कान्तिकीं गतिम्। सनकादय ऊचुः। गुणेष्वा विशते चेतो गुणाश्चेतसि च प्रभो, कथमन्योन्यसन्त्यागो मुमुक्षो रतित्पीर्षोः। श्रीभगवानुवाच। एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः, ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः। समामचिन्तयद्देवः प्रश्नपारतितीर्षया, तस्याहं हंसरूपेण सकाशमगमं तदा। दृष्ट्वा मान्तौपव्रज्य कृत्वा पादाभिवन्दनं, ब्रह्माणमग्रतः कृत्वा पप्रच्छुः को भवानिति। इत्यहं मुनिभिः पृष्टस्तत्त्वजिज्ञासुभिस्तदा, यदवोचमहं तेभ्यस्तदुद्धव निबोध मे। वस्तुनो यद्यनात्वमात्मनः प्रश्न ईदृशः, कथं घटेत वो विप्रा वक्तुर्वामेक आश्रयः। पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः, को भवानिति वः प्रश्नो वाचारम्भो यनर्थकः। मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैः, अहमेव न मत्तोऽन्यदिति बुद्ध्यध्वमञ्जसा। गुणेष्वा विशते चेतो गुणाश्चेतसि च प्रजाः, जीवस्य देह उभयं गुणाश्चेतो मदात्मनः। गुणेषु च विसच्चित्तमभीक्ष्णं गुणसेवया, गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत्। जाग्रत्स्वप्न सुषुप्तं च गुणतो बुद्धिवृत्तयः, तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः। यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तिदः, मैतुर्ये स्थितो जह्यात्यागस्तद्गुणचेतसाम्। अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम्, विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितस्त्यजेत्। यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः, जागर्त्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा। असत्त्वादात्मनोऽन्येषां भावानां तत्कृताभिधा, गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा। यो जागरे बहिरनुक्षणधर्मिणोऽर्थान्, भुङ्क्ते समस्तकर्णैर्हृदि तत्सदृक्षान्। स्वप्ने सुषुप्त उपसंहरते स एकः, स्मृत्यन्वया त्रिगुणवृत्तिदृगिन्द्रियेशः एवं विमृश्य गुणतो मनसस्त्र्यवस्था मन्मायया मयि कृता इति निश्चितार्थाः संच्छिद्य हार्दमनुमान सदुक्तितीक्ष्ण ज्ञानासिना भजतमाखिल संशयाधिम् ईक्षेत विभ्रममिदं मनसो विदासं दृष्टं विनष्टमतिलोलमलात चक्रम् विज्ञानमेकमुरुधेव विभाति माया स्वप्नस्त्रिधा गुणविसर्ग कृतो विकल्पः दृष्टिं ततः प्रतिनिवर्त्य निवृत्त तृष्णः तूष्णीं भवेन्निज सुखानुभवो निरीहः संदृश्यते क्वच यदीदमवस्तु बुद्ध्या त्यक्तं भ्रमायन भवेत् स्मृतिरानिपातात् देहं च नश्वरमवस्थितमुत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् दैवादपेतमुत दैववशादुपेतम् वासो यथा परिकृतम् मदिरामदान्धः देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकम् प्रति समीक्षत एव सासुः तं स प्रपञ्चमधिरूढ समाधियोगः स्वाप्नम् पुनर्न भजते प्रतिबुद्धवस्तुः मयैतदुक्तं वो विप्रागुह्यं यत्साङ्ख्ययोगयोः जानीतमागतं यज्ञं युष्मद्धर्मविवक्षया अहं योगस्य साङ्ख्यस्य सत्यस्य अर्थस्य तेजसः परायणं द्विजश्रेष्ठा श्रियः कीर्तेर्दमस्य च मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकं सुहृदं प्रियमात्मानं साम्यासङ्गादयो गुणाः इति मे छिन्न सन्देहा मुनयः सनकादयः सभाजयित्वा परया भक्त्या गृणत संस्तवैः तैरहं पूजितः सम्यक् संस्तुतः परमर्षिभिः प्रत्ययाय स्वगं धाम पश्यतः परमेष्ठिनः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादशस्कन्धे त्रयोदशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।